अक्षं सर्वथा मांसं यज्ञशिष्टमपि क्वचित् न पेयं च सुरामद्यं अपि देवनिवेदितम्।